सर्वेभ्यः अद्य परमलघुमञ्जूषायां चतुर्दशः पाठः एप्रिल् मासस्य दशमः दिनाङ्कः. अद्य वयं शाब्दबोधसहकारिकारणेषु आकाङ्क्षां योग्यतां च पश्यामः. अदौ मङ्गलम् येनाक्षरसमाप्नायमिति गम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. शिवन्नत्वा हि नागेशेनानीया परमालघुः वैयाकरणसिद्धान्तमञ्जूषैषा विरच्यते. आदौ गतप्रकरणस्य किञ्चित् पुनरावर्तनं कृत्वा अद्यतनं भागं पठामः. तत्र स्फोटनिरूपणं कृतम्. अस्मिन् ग्रन्थे आदौ स्फोटेन आरभ्य स्फोटप्रभेदान् निरूप्य ततः वृत्तिः शब्दः प्रमाणं भवति. शब्दः नाम स्फोटः, सः ज्ञाने करणं भवति. तज्जन्यं ज्ञानं शाब्दबोधः. शाब्दबोधे वृत्तिज्ञानं हेतुः. वृत्तिश्च त्रिधा भवति, शक्तिः लक्षणा व्यञ्जना चेति निरूप्य ततः वृत्त्याश्रयः शब्दः कीदृशः, शब्दस्य स्वरूपं किम् इति विचार्यते. तत्र वाचकत्वम् अर्थात् अर्थवाचकः शब्दः वर्णाः प्रत्येकमिति वर्णसङ्घातो वयति तार्किकानां मतं निराकृत्य वैयाकरणसिद्धान्तानुगुणं वाचः स्वरूपं स्फोटस्य स्वरूपं च निरूपयति नागेशः. तत्र वाक् चतुर्विधा विद्यते. परा, पश्यन्ती, मध्यमा, वैखरी चेति. परा वाक् मूलाधारचक्रे स्थिता. योगिनां समाधौ निर्विकल्पकज्ञानविषया बिन्दुरूपिणी सूक्ष्मा च. पश्यन्ती नाभिसंस्थिता, सापि योगिनां समाधावेव ज्ञेया. तत्र च सविकल्पकज्ञानस्य विषयो भवति. अतः सामान्यतः परायाः पश्यन्त्याः वा अनुभवः अस्माभिः न प्राप्यते. मध्यमा तु हृदिस्था, हृदिस्था मध्यमा ज्ञेया इत्युच्यते. एषा मध्यमा वागेव स्फोटव्यञ्जिका. अतः स्फोटस्य नाम अर्थवाचकस्य शब्दस्य भानं मध्यमा मध्यमया भवति इति सिद्धान्तः. सर्वैः परश्रवणगोचरा ध्वनिः वैखरी इत्युच्यते. सो द एक्स्टर्नल् सौण्ड् वि हियर् इस् वैखरी. सो फ्रम् देर् एस् वि मूव् इन्वर्ड्स् द मोर् एण्ड् मोर् सूक्ष्म कैण्ड्स् आफ् वाक् आर् नोन् एस् द परा, पश्यन्ति एण्ड् मध्यम. अत्र परा पश्यन्त्योः समाधौ ज्ञानविषयत्वं प्रतिपादितम्. मध्यमा हृदिस्था सूक्ष्मा, सूक्ष्मा नाम परश्रवण अगोचर. जपादिषु आत्मना श्रोतुं शक्या, किन्तु परैः श्रोतुम् अशक्या मध्यमा. तयैव स्फोटः व्यञ्ज्यते व्यज्यते. वैखरी तु परश्रवणगोचरा ध्वनिः. भैर्यादि नादवन् निरर्थकाः एते ध्वनयः इत्युक्तम्. किञ्च एषः स्फोटात्मकः शब्दः ब्रह्मरूपः, नित्यः, एकः, अखण्डश्च. कोऽपि भेदः नास्ति. पदेन वर्णा विद्यन्ते, वर्णेष्वयवा न च. वाक्यात् पदानाम् अत्यन्तं प्रविवेको न कश्चन इति भर्तृहरिः. एवञ्च वाक्यम् एव तत्त्वं. तत्र पदानां विभागः अथवा पदेव वर्णानां विभागः इत्येतत् सर्वमपि उपाधिभेदाद् उपाधिवशादेव प्रतीयते, न तु तत्त्वतः भेदः अस्ति. यथा उपाधिवशात् जपाकुसुमाद्युपाधिवशात् स्फटिके लौहित्यपीतत्वादिभानं भवति, यथा वा घटादि उपाधिवशात् घटाकाशः, महाकाशः इत्यादि एकस्यैव आकाशः आकाशस्य भेदः प्रतीयते, एवं कत्वगत्वादयः ध्वनयः उपाधिमात्रम् तेषां स्फोटे भानं भवति यथा प्रतिबिम्बे बिम्बगतधर्मानां भानं भवति एवं स्फोटे तत्त्वगत्वादिकं भासते किन्तु वस्तुतः स्फोटः तु एक एव अखण्डश्च नित्यश्च इति सिद्धान्तः किञ्च ध्वनिः द्विविधो भवति प्राकृतः वैकृतश्चेति तत्र प्राकृतध्वनयः स्फोटव्यञ्जकाः शब्द तद् अभिव्यक्तेः अनन्तरं द्रुत मध्य विलम्बितादि वृत्ति वृत्तेः त्रिविधायाः वृत्तेः हेतुः वैकृतनादः इति प्रतिपादितम् उच्चारयितुः युगपदेव मध्यमा वैखरीभ्यां नादः उत्पद्यते तत्र मध्यमाया शीघ्रमेव अर्थबोधः भवति श्रोतुस्तु वैखरीनादः इन्द्रियग्राह्यः अर्थात् श्रोत्रा श्रोत्रेन्द्रियेण गृहीतः वैखरीनादः तस्मिन् तस्य हृद्गता मध्यमानादम् उत्साहयति तेन मध्यमानादेन स्फोटः व्यज्यते एवञ्च श्रोतुः विलम्बेन शब्दबोधः भवति बिकास् आफ् दिस् डिले इन् वैखरी विच् इग्नैट्स् मध्यमा विच् देन् इण्डिकेट्स् आर् इम्प्लैस् दिस् स्फोट एवमेव भाष्ये उक्तः सिद्धान्तः श्रोत्रोपलब्धिः बुद्धिनिर्ग्राह्यः प्रयोगेण अभिज्वलितः आकाशदेशशब्दः अतः कीदृशः शब्दः श्रोत्रोपलब्धिः वैखरीनादरूपेण ध्वनिः श्रोत्रे उपलभ्यते किन्तु वस्तुतः शब्दस्य ज्ञानार्थं बुद्धिः अपेक्षिता यतोहि बुद्धावेव स्फोटस्य स्फोटः व्यज्यते मध्यमानादेन प्रयोगेण नाम वैखर्या अभिज्वलितः सो जस्ट् लैक् ब्लोयिङ्ग् विल् इग्नैट् द फैर् विद् इन् अ चार्कोल् और् वुड् एवं वैखरीनादेन मध्यमानादः नादस्य प्रज्वलनं भवति एतादृशः आकाशदेशशब्दः इति भाष्ये शब्दस्य निरूपणं कृतम् एतादृशः शब्दः एव स्फोटः इत्युच्यते स च स्फोटः उपाधिभेदेन अष्टधा भवति वर्णस्फोटः परस्फोटः वाक्यस्फोटः एवं वर्णजातिस्फोटः पदजातिस्फोटः वाक्यजातिस्फोटश्चेति पुनश्च अखण्डपदस्फोटः अखण्डवाक्यस्फोटश्चेति अष्टौ स्फोटाः तेषु वाक्यस्फोटस्यैव पारमार्थिक वाक्यस्फोटः एव पारमार्थिकतया तत्त्वम् तेनैव लोके अर्थबोधः भवति अन्ये प्रभेदास्तु कल्पिताः एतदेव आदावपि यथा प्रतिपादितम् उपेयप्रतिपत्त्यर्थाः उपायाः अव्यवस्थिताः इत्येवं स्फोटनिरूपणं कृतम् इदानीं शब्दः ज्ञातः शब्दादर्थस्य अवगमने कारणं भवति वृत्तिः वृत्तेः त्रैविध्यम् अपि अवगतम् किन्तु एतावन्मात्रेण शब्दबोधः न भवति So this is the main samagri for shabdabodha. First you should know what is the shabda. And then padapadarthayo sambandhaha vrittihi avagantavya. Kintu etavan matrena shabdabodhaha na bhavati. Shabdabodhe anyani kanichana karanani apekshyante. Etani shabdabodha sahakari karanani ityuchyante. Just a moment please. अग्रिमं प्रकरणमस्ति शाब्दबोध सहकारी कारण निरूपणम्। शाब्दबोधे सहकारीणि कारणानि, कुत्रचित् कार्यं यत्र भवति तत्र मुख्यं कारणं कश्चित् एकं भवति किञ्चित्, तेन सह सहकारी कारणानि अन्यान्यपि भवन्ति। तत्र व्याख्याने उच्यते मुख्यकारणजन्य कार्यजनकत्वे सति मुख्यकारणभिन्नत्वं सहकारिकारणत्वम्। मुख्यं कारणं किञ्चित् भवति, तज्जन्यं यत् कार्यं तस्य जनकत्वे मुख्यकारणभिन्नानि अन्यानि यानि कारणानि भवन्ति। सो देर् इस् वन् प्रिन्सिपल् कास् फार् जनरेटिङ्ग् अ कार्य, सो अदर् फैक्टर्स विच हेल्प इन द जनरेशन ऑफ दट कार्य अपार्ट फ्रम द मुख्यम कारण, सो दे आर कॉल्ड द सहकारी कारणानि। यथा घटकार्यं प्रति मुख्य कारणत्वं कपालस्य, कपालद्वय संयोगात् घट निष्पत्तिः, अतः घटः यत्र भवेत् तत्र मुख्यं कारणं कपालः। इतरेषां तु केवलेन कपालेन घटस्य उत्पत्तिः न सम्भवति, तत्र दण्डः, चक्रं, कुलालः इत्येवम् अन्यानि बहूनि कारणानि अपेक्ष्यन्ते, तानि तु सहकारिकारणानि इत्युच्यन्ते। सो दिस् इस् अ सिम्पल् डिविशन् बिट्वीन् द मेजर् कास् एण्ड् द मैनर् कास्। सो कारणानां विभागस्तु इतरथा अस्ति, सो देर् इस् अ फेमस् डिविशन् आफ् कारणास् इन् टु निमित्तकारण, समवायिकारण, असमवायिकारण एट्सेट्रा, सो दट् इस् डिफरेण्ट्। सो हियर् ही इस् ओन्ली डिस्टिङ्ग्विशिङ्ग् बिट्वीन् द मेन् कारण एण्ड् द रेस्ट् आर् आल् क्लब् टुगेदर् एस् द सहकारि कारणम्। प्रकृते तु पदज्ञानं शाब्दबोधे मुख्यं कारणम्। शाब्दबोधः यत्र भवेत् तत्र मुख्यं कारणं भवति पदस्य ज्ञानं, पदज्ञानं विना न भवति। पदार्थ उपस्थित्यादीनां तु सहकारि कारणत्वम्। So everything else will work as the sahakari karana. Tatra chatvari karanani uchyante. Atha shabda bodha sahakari karanani. Akanksha, yogyata, asatti, tatparyani. So these four are considered as sahakari karanas or assisting factors for shabda bodha. Akanksha, yogyata, asattihi, tatparyancha. तत्रादौ आकांक्षा नामका इति निरूप्यते। वाक्यसमयग्राहिका आकांक्षा, आकांक्षा नाम वाक्यसमयग्राहिका, अत्र समयः नाम शक्तिः इत्युच्यते, अत्र समयपदं शक्तिपरं, तथा च वाक्यशक्तिग्राहिका। सो दट् विच् हेल्प्स् टु अण्डर्स्टाण्ड् द मीनिङ्ग् आफ् एन् एण्टैर् वाक्य। सो पदानां शक्तिः भवति, प्रत्येकं पदानि अवगतानि, किन्तु वाक्यस्य कः अर्थः, सम्पूर्णस्य वाक्यस्य द कम्प्लीट् आर् द एण्टैर् मीनिङ्ग् आफ् अ सेण्टेन्स् बै रिलेटिङ्ग् द सेपरेट् पदार्थ। प्रत्येकस्मात् पदात् स्वस्व अर्थे उपस्थापिते, तयोः परस्परं कः सम्बन्धः, सम्बन्धे सति सम्पूर्णाद् वाक्यात् कः अर्थः प्रतीयते इति आकाङ्क्षया ज्ञायते। वाक्यसमयग्राहिका नाम वाक्यशक्तिं बोधयितुं सहकारिणी भवति आकांक्षा। आकांक्षा नामका, सा च एकपदार्थज्ञाने तदर्थ अन्वययोग्य अर्थस्य यद्ज्ञानं तद्विषय इच्छा। आकांक्षा नामका एकपदार्थज्ञाने, कस्यचित् पदार्थस्य ज्ञाने, यथा घटम् इत्यस्ति, घटपदार्थस्य ज्ञाने तदर्थ अन्वययोग्य अर्थस्य, घटपदार्थेन अन्वेतुं योग्यः यः अपरः अर्थः। घटम् इत्युक्ते किम् इति प्रश्नः उदेत्येव, आनय, नय इत्यादि क्रियायाः आकाङ्क्षा। अतः तदर्थ अन्वययोग्य अर्थस्य यद्ज्ञानं तद्विषय इच्छा। एकस्मिन् पदे श्रुते तस्य अर्थे ज्ञाते, तेन अन्वययोग्यस्य अर्थस्य ज्ञानविषयिणी इच्छा एव आकांक्षा इत्युच्यते सो आकांक्षा इस् द डिजैर् टु नो अ रिलेटेड् अर्थ। वन्स् यु हेव् हर्ड् अ वर्ड् एण्ड् अण्डर्स्टुड् इट्स् मीनिङ्ग्, सो देर् इस् अ डिजैर् टु नो वाट् इस् असोसियेटेड्, वाट् इस् द मीनिङ्ग् असोसियेटेड् वित् दिस् वर्ड् और् वित् दिस् पदार्थ। ओके, दट् इस् काल्ड् आकांक्षा, इच्छा, आकांक्षा। जनरली आकांक्षा मीन्स् इच्छा, इट् इस् अ डिजैर्। अत्र इन दिस पर्टिक्युलर कॉन्टेक्स्ट व्हाट इज आकांक्षा ज्ञान विषयिनी इच्छा इट इज अ डिजायर टू नो व्हाट अन्वय योग्य अर्थ सो टू नो द अर्थ विच गोज और विच इज असोसिएटेड विथ दिस पर्टिक्युलर पदार्थ एक पदार्थ ज्ञाने तदर्थ अन्वय योग्य अर्थस्य यद् ज्ञानम् तद्विषये इच्छा अस्य अन्वयी अर्थः कः इत्येवं रूपा सो घटपदार्थे ज्ञाते अस्य अन्वयी अर्थः कः इत्येवं रूपा पुरुषनिष्ठैव कुत्र भवति एषा इच्छा यः जानाति तस्मिन् भवति न तु अर्थे एव राइट सो द आकांक्षा इज ऑलवेज पुरुषनिष्ठा अहम् किञ्चित् पदं शृणोमि तस्य अर्थम् अवगच्छामि तदा तेन सह सम्बद्धस्य अर्थस्य ज्ञाने मयि या इच्छा उत्पद्यते सैव आकांक्षा अतः पुरुषनिष्ठा आकांक्षा सा च एकपदार्थज्ञाने तदर्थ अन्वययोग्यार्थस्य यज्ज्ञानं तद्विषय इच्छा तस्य अन्वय्यर्थः कः इत्येवं रूपा पुरुषनिष्ठैव तथापि पुरुषनिष्ठा आकांक्षा सा इच्छा पुरुषे एव भवति तथापि तस्याः स्वविषये अर्थे आरोपः किन्तु सामान्यतः किमुच्यते अयमर्थः साकांक्षः इत्युच्यते अयमर्थः अर्थान्तरम् आकांक्षति इति व्यवहारात् घटपदार्थः क्रियापदार्थम् आकांक्षति अथवा काचित् क्रिया उक्ता नय इति आनय अथवा नय इति क्रिया उक्ता सा क्रिया घटपदार्थम् आकांक्षति इत्येवम् अर्थे आकांक्षायाः आरोपः क्रियते सो द आकांक्षा एक्चुअली रिसाइड्स इन द पुरुष दट इज द डिजायर टू नो इज इन द पुरुष बट दट इच्छा इज ट्रांसपोज्ड ऑन टू द अर्थ ओके विच इज द ऑब्जेक्ट ऑफ आकांक्षा So we say this artha is sakanksha. That is, this artha requires some other artha to be completed. So the artha does not require anything. The ghata will exist by itself and the kriya padartha will exist by itself. It is we who have the desire to connect the two padarthas. But akanksha is imposed on the artha. Tasyaha svavishaye arthe aropaha. Ayamarthaha arthantaram akankshati iti vyavaharat. Idameva. अभिधान अपर्यवसानम् इत्युच्यते अभिधानस्य अपर्यवसानम् पर्यवसानम् नाम समाप्तिः पूर्णता अपर्यवसानम् नाम अपूर्णता इत्यर्थः सो आकांक्षा यदा आकांक्षा यावत् आकांक्षापूर्तिः न भवति अन्टिल् एण्ड् अन्लेस् द आकांक्षा आफ् आल् द पदार्थस् इन् अ सेण्टेन्स् इस् साटिस्फैड् अभिधानस्य अपर्यवसानम् So, the abhidhana, the padartha abhidhana is not complete. Okay, so the process of understanding is complete only when all the akankshas related to all the padarthas are satisfied. Ayamarthaha arthantaram akankshati iti vyavaharat idameva abhidhana aparyavasanam ityuchyate. Abhidhanam is not just by telling the separate words and understanding the meanings of separate words. You should understand what they mean in connection to each other. Yavat tat na bhavati, tavat paryantam abhidhanasya paryavasanam nama samaptihi na bhavati. Ateva itat padasamuhaha vakyam artha samaptau samartham ityuchyate. So it should convey a complete meaning, not disjointed meanings from the separate words. Padetu naropaha. एवम् आकांक्षायाः अर्थे आरोपः क्रियते इति उक्तम् पदे तु न आरोपः पदे आकांक्षायाः आरोपः न क्रियते इदं पदं पदान्तरम् आकांक्षति इति न अर्थः अर्थान्तरम् आकांक्षति इत्येव भवति किमर्थम् अर्थबोधोत्तरमेव आकांक्षोदयात् आकांक्षा कदा उदेति अर्थबोधस्य अनन्तरम् So you get the akanksha only when you understand the meaning. So until and unless you understand what is ghata, you will not be able to think of a related meaning. Yada kashchit padarthaha avagataha, tadaiva tasya anvayyarthasya jnane ichha udeti. Padasyaiva arthaha erina jnayate, tarhi akanksha no deti. Ataha pade akanksha yaha aropaha nakriyate. पदे तु न आरोपः अर्थबोधोत्तरमेव आकांक्षोदयात् किन्तु व्यवहारः अस्ति पदं साकांक्षम् अस्य पदस्य आकांक्षा अस्ति इति व्यवहारः अस्ति पदं साकांक्षम् आकांक्षया सहितं साकांक्षम् पदं साकांक्षम् इति तु आकांक्षार्थबोधकम् इत्यर्थकम् पदं साकांक्षम् इति तु साकांक्ष अर्थबोधकम् इत्यर्थकम् सो इवन् वेन् वि आर् सेयिङ्ग् पदं साकांक्षम् वि मीन् दट् पद तत् पदम् अर्थं बोधयति कीदृशम् अर्थं बोधयति साकांक्षम् अर्थं बोधयति न तु स्वयं साकांक्षम् सो पद डस् नाट् हाव् आकांक्ष बै इट् सेल्फ् इट् कन्वेज् अ मीनिङ्ग् विच् हेज़् आकांक्ष सो विच् हेज़् द डिज़ैर् टु बी रिलेटेड् टु सम् अदर् मीनिङ्ग् तदुक्तं समर्थसूत्रे भाष्ये परस्परव्यपेक्षां सामर्थ्यमेके तत्र समर्थपदविधिः इति सूत्रं समासपादस्य प्रथमं सूत्रं तत्र सामर्थ्यं नाम पदानां परस्पर अन्वयः अन्वययोग्यता तस्य विषये महती चर्चा प्रवर्तते तत्र उच्यते परस्परव्यपेक्षां सामर्थ्यम् एके केचन वदन्ति परस्परव्यपेक्षा विशिष्टा अपेक्षा व्यपेक्षा सा एव आकाङ्क्षा इत्यपि सामर्थ्यं तदेव सामर्थ्यम् इति केचन वदन्ति का पुनःशब्दयोर्व्यपेक्षा शब्दयोः परस्परम् आकाङ्क्षा अथवा व्यपेक्षा इत्युक्ते का इति चेत् न ब्रूमशब्दयोरिति किं तर्हि अर्थयोरिति तत्र स्पष्टमुच्यते भाष्यकारेण शब्दयोः परस्परव्यपेक्षा इति न तैः शब्दैः ये अर्थाः अभिधीयन्ते तेषाम् अर्थानां परस्परव्यपेक्षा परस्परव्यपेक्षां सामर्थ्यमेके का पुनः शब्दयोर्व्यपेक्षा न ब्रूमशब्दयोरिति किं तर्हि अर्थयोरिति अतः अर्थे एव आकाङ्क्षायाः आरोपः क्रियते वस्तुतः पुरुषनिष्ठा आकाङ्क्षा तस्याः स्वविषये अर्थे आरोपः क्रियते पदे तु न भवति यतोहि अर्थज्ञानं विना पदस्य आकाङ्क्षा न उदेति अतः साकाङ्क्षं पदम् इति तु साकाङ्क्ष अर्थबोधकम् इत्यर्थे तादृशः व्यवहारः सो दिस् इस् द फस्ट् डेफिनेशन् आफ् आकाङ्क्षा विच् हि गेव् विच् इस् एकपदार्थज्ञाने तदर्थ अन्वययोग्य अर्थस्य यज्ञानं तद्विषय इच्छा आकाङ्क्षा सो आकाङ्क्षा आन् नोयिङ्ग् द मीनिङ्ग् आफ् वन् वर्ड् सो द डिज़ैर् टु नो अ रिलेटेड् पदार्थ इस् काल्ड् आकाङ्क्षा सो इट् इस् द इच्छा द डिज़ैर् ज्ञानं ज्ञानविषय इच्छा टु नो अन्वययोग्य अर्थ रिलेटेड् पदार्थ एकपदार्थ ज्ञाने सति सो on understanding the meaning of a particular word the desire to know the meaning of a desire to know a meaning which is related to this padartha is called akanksha iti that is the first definition of akanksha that he offers idrisha jigyasotthapakam cha ekapadarthe apara padartha vyatireka prayukta प्रयुक्तस्य अन्वयबोध अजनकत्वस्य ज्ञानम् सो वाट् अरौसस् दिस् डिज़ैर् सो देर् इस् अ डिज़ैर् टु नो अ रिलेटेड् पदार्थ कथं भवति अस्याः जिज्ञासायाः अन्वययोग्यार्थस्य जिज्ञासा एव आकाङ्क्षा इत्युक्तम् ईदृशजिज्ञासोत्थापकम् एतादृशीं जिज्ञासाम् उत्थापयति किम् उत्थापयति एकपदार्थे अपरपदार्थव्यतिरेकप्रयुक्तस्य अन्वयबोध अजनकत्वस्य ज्ञानम् सो द नालेज् दट् एकपदार्थे इन् वन् पदार्थ इन् अ पर्टिक्युलर् पदार्थ अपरपदार्थव्यतिरेकप्रयुक्तस्य ड्यू टु द एब्सेन्स् आफ् अनदर् पदार्थ अपरः यः पदार्थः तस्य व्यतिरेकः नाम अभावः सो नाट् नोयिङ्ग् अनदर् मीनिङ्ग् द मीनिङ्ग् अनदर् पदार्थ तत् प्रयुक्तस्य ड्यू टु द एब्सेन्स् आफ् नालेज् आफ् अनदर् पदार्थ anvaya bodha ajanakatvasya. So there is no bodha, no understanding of the anvaya. So the relation or the connection, that is the jnana. Idrisha jigyasottapakam cha ekapadarthe apara padartha vyatireka prayuktasya anvaya bodha ajanakatvasya jnanam. Katham etadrishi jigyasa udeti iti cheta ekasmin padarthe jnate anyaha padarthaha yadina jnataha apara padarthasya yaha vyatirekaha tat prayuktasya anvaya bodha ajanakatvasya maya aparaha padarthaha na jnataha tena karanena atra anvaya bodhaha na jayate ityetadrisham jnanam jigyasam utthapayati. Yada etad jnayate maya anya padarthasya jnanasya abhavakaranena anvayaha na budhyate iti yada jnayate tada astu tarhi asya anvayarthaha kaha ityevam vidha akanksha udeti. Ataha ईदृश जिज्ञासोत्थापकं च एकपदार्थे अपरपदार्थ व्यतिरेक प्रयुक्तस्य अन्वयबोध अजनकत्वस्य ज्ञानम् इति तद्विषये तादृश अन्वयबोध अजनकत्वे अपि आकांक्षा इति व्यवहारः. अतः तद्विषये नाम तादृशं ज्ञानं यदस्ति तस्य विषयः भवति अन्वयबोध अजनकत्वम्. So, that which does not produce a knowledge of the anvaya. So, the absence of the knowledge of the anvaya is also referred to as the akanksha. Anvaya bodhasya abhavaha, anvaya bodhasya ajanakatvam api akanksha iti uchyate.
Good morning, Swamiyaji.
Yes.
Here, the first... Can you hear me, ma'am?
Yes, yes, I can hear you. Tell me.
Here, the first padartha is known.
Yes.
The second padartha is also known.
Yes.
But the utilization of the second padartha, or the of which the padartha is known, the anvaya is not known. So, the ajnana is because of anvaya bhava, not the padartha bhava.
Ha, you should know the individual padarthas, definitely. The thing is, if it is incomplete, when you are saying, if you just hear ghatam, I mean, not just ghataha. When you hear something like ghatam, you understand what is ghatam. But what? So you say a pot, what should I do with it? Immediately you say what? Ghatam pashya, ghatam anaya. Immediately there is a desire to know what is the thing related to it. Even before you hear the kriya. It is not, I mean, when you hear both kriyas, the akanksha, I mean, you will understand it. The process is instantaneous. When you are hearing both, immediately there is the akanksha is immediately satisfied because of which the anvaya bodha happens and because of which there is shabda bodha. That is how it happens. If you hear the whole word, ghatamanaya, that process is instantaneous. Okay, there is akanksha. As soon as you hear ghatam, there is the desire to know, okay, what to do with it. So when you hear anaya, so the akanksha is satisfied. Because of which you understand the anvaya, because of which there is shabda bodha. Okay? So, till you understand it, there is what is called the akanksha. So, does that answer the question? Sorry, I think I muted you again.
The question is, in my opinion, he is saying the anvaya bodha is not understood. That is the reason the akanksha has come up. But what you are saying is the second word is not uttered.
The ekapadartha jnane. So he is saying ekapadarthe. There is one padartha. You have understood one padartha. Apara padartha vyatireka. So because there is no apara padartha, you have not yet understood the other padartha, a related padartha, tat prayuktasya anvaya bodha ajanakatvasya. So you do not know where this padartha relates to. Eka padarthe, apara padartha vyatireka prayuktasya. Because the other padartha is still not there, you don't know where to relate, what you have to relate this to. Anvaya bodha ajanakatvasya jnanam.
So, yes, now I get it.
Yeah.
थैंक यू थैंक
इति तद्विषये नाम तादृश अन्वयबोध अजनकत्वे अपि आकांक्षा इति व्यवहारः ओके सो दैट इज आल्सो कॉल्ड आकांक्षा ओके सो दैट इज द सेकंड थिंग ही टेल्स विथ आकांक्षा द फर्स्ट थिंग इज एकपदार्थे अपरपदार्थ एकपदार्थ ज्ञाने तद अर्थ अन्वय योग्य अर्थस्य यद् ज्ञानं तद्विषय इच्छा आकांक्षा इत्युच्यते अन्वयबोध अजनकत्वम् बिकॉज विथाउट द नॉलेज ऑफ दट अपरपदार्थ देर इज नो अन्वयबोध अतः अन्वयबोध अजनकत्वम् अपि आकांक्षा इत्युच्यते यद्वा और ही कम्स टू द थर्ड डेफिनेशन विच इज वेन यू हैव द टू वर्ड्स टुगेदर उत्थापकता विषयता अन्यतर संबंधेन उभय संबंधेन वा अर्थांतर जिज्ञासा आकांक्षा सो अर्थांतर जिज्ञासा द डिजायर टू नो अ डिफरेंट अनदर पदार्थ इज आकांक्षा सो व्हाट इज द संबंध उत्थापकता विषयता अन्यतर संबंधेन उभय संबंधेन वा सो ईदर थ्रू उत्थापकता संबंध और विषयता संबंध और उभय संबंध उत्थापकता संबंध नाम घटम इति श्रुते जिज्ञासाम उत्थापयति सो इट क्रिएट्स अ डिजायर टू नो अ डिफरेंट पदार्थ ओके सो दैट इज द उत्थापकता संबंध वेरस व्हेन यू हियर आनय देयर इज आल्सो किम आनयामि इति सो दैट आल्सो प्रोड्यूसेस द आकांक्षा उत्थापकता संबंध अस्ति घट आनय इति पदार्थ जिज्ञासा उत्थापकता घटपदार्थे अस्ति घटपदार्थ जिज्ञासा उत्थापकता आनय इति पदार्थे अस्ति ओके विषयता व्हाट इज विषयता घटपदार्थ जिज्ञासा विषयः आनय पदार्थः सो देयर इज द विषय सो द जिज्ञासायाः विषयः अपि भवति आनय इति पदार्थः एवं उत्थापकता विषयता अन्यतर संबंधेन उभय संबंधेन वा सो इन दिस केस घटम आनय उभयः भवति सो देयर इज बोथ उत्थापकता एंड विषयता आद्यम ओके बट अन्यतर संबंधेन बोथ ऑफ दीज नीड नॉट बी प्रेजेंट एकेन संबंधेन अपि आकांक्षा भवितुम अर्हति आद्यम पश्य मृगो धावति इत्यत्र पश्य मृगो धावति इति प्रसिद्धः प्रयोगः कः अर्थः मृगकर्तृकं धावनं पश्य इत्यर्थः मृगकर्तृक धावनकर्मकं दर्शनम् सो पश्य मृगो धावति सो पश्य इज सी सी व्हाट इज नॉट द मृग ओके पश्य मृगो धावति इज अ फेमस एग्जांपल व्हिच इज गिवन इन शास्त्र सो हियर द सीइंग द पर्सन हु इज सेइंग दिस does not mean to show the mruga, the deer itself. The karma for darshana here is not the deer, but the running of the deer. The kriya, the dhavana kriya of mruga is karma for darshana. Okay? Pashya mrugo dhavati ityatra, mruga kartrikam yad dhavanam, tat karmakam darshanam iti anvayaha. So mrugaha dhavati. इत्यस्ति पश्य इत्यस्य अन्वये किं द्रष्टव्यं धावनं द्रष्टव्यं कस्य धावनं मृगस्य धावनं इति अन्वयः सो अत्र पश्य मृगो धावति इत्यत्र दर्शनार्थस्य कारक धावन आकांक्षा उत्थापकत्वम् सो मृगः धावति इत्युक्ते देयर इज नो आकांक्षा इफ यू सी मृगः धावति is complete by itself. Okay? If you just say mrigaha, there is the akanksha, king karoti iti, dhavati ityanena sa akanksha puryate. Dhavati ityukte kaha ityakanksha vidyate, mrigaha ityanena puryate. So there is no further akanksha. So dhavati does not generate akanksha for other kriya by itself. Okay? When you say mrigaha dhavati, it generates an akanksha for mrigapadartha. What is running, etc. But it does not generate an akanksha for darshana. Okay. ಆನ್ ಅ ನಾರ್ಮಲ್ ಬೇಸಿಸ್ ಮೃಗಃ ಧಾವತಿ ಇತ್ಯುಕ್ತೆ ಧಾವತಿ ಇತ್ಯರ್ಥೇನ ದರ್ಶನ ಕ್ರಿಯಾಯಃ ಅಥವಾ ಕ್ರಿಯಾಂತರಸ್ಯ ಆಕಾಂಕ್ಷ ನ ಉದೇತಿ ಕಿಂತು ಪಶ್ಯ ಇತ್ಯುಕ್ತೆ ಕಿಂ ದ್ರಷ್ಟವ್ಯಂ ಇತಿ ಆಕಾಂಕ್ಷ ಉದೇತಿ ಸೊ ವೆನ್ ವಿ ಅಟರ್ ಪಶ್ಯ ದೇರ್ ಇಸ್ ದ ಆಕಾಂಕ್ಷ ಫಾರ್ ದ ಕಾರಕ ಕರ್ಮಕಾರಕ ಕಿಂ ದ್ರಷ್ಟವ್ಯಂ ಇತಿ ಅತಃ ಪಶ್ಯ ದರ್ಶನಾರ್ಥಸ್ಯ ಕಾರಕ ಧಾವನಾಕಾಂಕ್ಷ ಉತ್ಥಾಪಕತ್ವಂ ಕಾರಕಂ ಅತ್ರ ಕಿಂ ಕರ್ಮಕಾರಕಂ ಧಾವನಂ ಅತಃ ಧಾವನ ಪದಾರ್ಥಸ್ಯ ಆಕಾಂಕ್ಷ ಉತ್ಥಾಪಕತ್ವಂ ದರ್ಶನಾರ್ಥೆ ಅಸ್ತಿ ಕಿಂತು ಧಾವನಾರ್ಥೆ ದರ್ಶನ ಆಕಾಂಕ್ಷ ಉತ್ಥಾಪಕತ್ವಂ ನಾಸ್ತಿ ದರ್ಶನ ಪದಾರ್ಥಾಕಾಂಕ್ಷ ಧಾವನ ಪದಾರ್ಥಃ ನ ಉತ್ಪಾದಯತಿ ಸೊ ಇಫ್ ವಿ ಜಸ್ಟ್ ಸೇ ಮೃಗಃ ಧಾವತಿ ಸೊ ಪರಸ್ಪರಂ ಉತ್ಥಾಪಕತಾ ವಿಷಯತಾ ಉಭಯಮಪಿ ಅಸ್ತಿ ಸೊ ಮೃಗ ಜನರೇಟ್ಸ್ ಎ ಡಿಸೈರ್ ಟು ನೋ ಧಾವನ ಪದಾರ್ಥ ಧಾವನ ಪದಾರ್ಥ ಜನರೇಟ್ಸ್ ದ ಡಿಸೈರ್ ಟು ನೋ ಮೃಗ ಪದಾರ್ಥ ಓಕೆ ಸೊ ದೇರ್ ಇಸ್ ಪರಸ್ಪರ ಉತ್ಥಾಪಕತಾ ಅಂಡ್ ವಿಷಯತಾ ಆಲ್ಸೋ ಸೊ ಧಾವನ ಇಸ್ ದ ವಿಷಯ ಆಫ್ ದ ಆಕಾಂಕ್ಷ ಆಫ್ ಮೃಗ ಸೊ ಸಿಮಿಲರ್ಲಿ ಮೃಗ ಇಸ್ ದ ವಿಷಯ ಆಫ್ ದ ಆಕಾಂಕ್ಷ ವಿಚ್ ಇಸ್ ದ ಜಿಜ್ಞಾಸ ಆಫ್ ಧಾವನ ಪದಾರ್ಥ ಉಭಯ ಸಂಬಂಧ ಅಸ್ತಿ ಮೃಗ ಧಾವತಿ ಕಿಂತು ಪಶ್ಯ ಧಾವತಿ ಇತ್ಯನಯೋ ದರ್ಶನಾರ್ಥಸ್ಯ ಧಾವನ ಧಾವನಾರ್ಥ ಧಾವನ ಆಕಾಂಕ್ಷ ಉತ್ಥಾಪಕತ್ವಮಸ್ತಿ ಸೊ ವೆನ್ ವಿ ಸೇ ಪಶ್ಯ ಇಟ್ ಜನರೇಟ್ಸ್ ದ ಡಿಸೈರ್ ಫಾರ್ ನೋಯಿಂಗ್ ದ ಕಾರಕ ಬಟ್ ವೆನ್ ವಿ ಸೇ ಧಾವತಿ ಇಟ್ ಡಸ್ ನಾಟ್ ಜನರೇಟ್ ಅನ್ ಆಕಾಂಕ್ಷ ಫಾರ್ ಪಶ್ಯ ಮೃಗ ಧಾವತಿ ಇತ್ಯುಕ್ತೆ ವಾಕ್ಯಸ್ಯ ಬೋಧಃ ನ ಭವತಿ ಸೊ ಧಾವತಿ ಡಸ್ ನಾಟ್ ಜನರೇಟ್ ದ ಆಕಾಂಕ್ಷ ಫಾರ್ ಪಶ್ಯ ಇಟ್ ಈಸ್ ಓನ್ಲಿ ದ ವಿಷಯ ಆಫ್ ದ ಆಕಾಂಕ್ಷ ಜನರೇಟೆಡ್ ಬೈ ಪಶ್ಯ ಇಟ್ ಡಸ್ ನಾಟ್ ಹ್ಯಾವ್ ಅ ರಿವರ್ಸ್ ಉತ್ಥಾಪಕತಾ ಅತಯೇವ ಉತ್ಥಾಪಕತಾ ವಿಷಯತಾ ಅನ್ಯತರ ಸಂಬಂಧೇನ ಸೊ ಒನ್ ಆಫ್ ದೀಸ್ ಇಸ್ ಆಲ್ಸೋ ಇನಫ್ ಈವನ್ ದೋ ನಾರ್ಮಲಿ ವಿ ಸೀ ದಟ್ ಇಟ್ ಇಸ್ ಮ್ಯೂಚುವಲ್ ಸೊ ಬೋತ್ ಪದಾರ್ಥಸ್ ಹ್ಯಾವ್ ದ produce the akanksha and they are also the object of akanksha okay so a produces an akanksha for b and a also is the object of akanksha of b similarly b produces an akanksha for b and it is the object of the akanksha of b ubhaya sambandha prayena drishyate kintu pashyamrugo dhavati ityadisho dhavanarthasya dhavanarthah ದರ್ಶನಾರ್ಥೇನ ಉತ್ಪಾದಿತಃ ಸೊ ಇಟ್ ಇಸ್ ದ ವಿಷಯ ಆಫ್ ದ ಆಕಾಂಕ್ಷ ಪ್ರೊಡ್ಯೂಸ್ಡ್ ಬೈ ದರ್ಶನ ಬಟ್ ಧಾವನ ಇಟ್ಸೆಲ್ಫ್ ಡಸ್ ನಾಟ್ ಪ್ರೊಡ್ಯೂಸ್ ಅನ್ ಆಕಾಂಕ್ಷ ಫಾರ್ ದರ್ಶನ ಅತಯೇವ ಉತ್ಥಾಪಕತಾ ವಿಷಯತಾ ಅನ್ಯತರ ಸಂಬಂಧೇನ ಉಭಯ ಸಂಬಂಧೇನ ವಾ ಸೊ ಉಭಯ ಸಂಬಂಧ ಇಸ್ ಕಾಮನ್ ಬಟ್ ಸಮಟೈಮ್ಸ್ ಈವನ್ ಒನ್ ಆಫ್ ದೀಸ್ ಪದಾರ್ಥಸ್ ಈಸ್ ಎನಫ್ ಒನ್ ಆಫ್ ದೀಸ್ ಸಂಬಂಧಸ್ ಈಸ್ ಎನಫ್ ಫಾರ್ ಪ್ರೊಡ್ಯೂಸಿಂಗ್ ದ ಜಿಜ್ಞಾಸ ಅಂಡ್ ದಟ್ ಇಸ್ ಆಕಾಂಕ್ಷ ಉತ್ಥಾಪಕತಾ ವಿಷಯತ ಅನ್ಯತರ ಸಂಬಂಧೇನ ಉಭಯ ಸಂಬಂಧೇನ ವಾ ಅರ್ಥಾಂತರ ಜಿಜ್ಞಾಸ ಆಕಾಂಕ್ಷ ಆದ್ಯಂ ಪಶ್ಯಮೃಗೋ ಧಾವತಿ ಇತ್ಯತ್ರ ದರ್ಶನಾರ್ಥಸ್ಯ ಕಾರಕ ಧಾವನ ಆಕಾಂಕ್ಷ ಉತ್ಥಾಪಕತ್ವಂ ಧಾವನಂ ತು ತದ್ವಿಷಯಃ ಏವ ಸೊ ಧಾವನ ಇಸ್ ದ ವಿಷಯ ಫಾರ್ ದ ಆಕಾಂಕ್ಷ ಪ್ರೊಡ್ಯೂಸ್ಡ್ ಬೈ ದರ್ಶನ ಬಟ್ ಇಟ್ ಡಸ್ ನಾಟ್ ಪ್ರೊಡ್ಯೂಸ್ ದ ಆಕಾಂಕ್ಷ ಫಾರ್ ದರ್ಶನ ಸಿಮಿಲರ್ಲಿ ದರ್ಶನ ಇಸ್ ನಾಟ್ ಅ ವಿಷಯ ಫಾರ್ ಆಕಾಂಕ್ಷ ಓಕೆ ಸೊ ಬಿಕಾಸ್ ಧಾವನ ಡಸ್ ನಾಟ್ ಪ್ರೊಡ್ಯೂಸ್ ಎನಿ ಆಕಾಂಕ್ಷ ಸೊ ಇಟ್ ಇಸ್ ನಾಟ್ ದ ವಿಷಯ ಫಾರ್ ಆಕಾಂಕ್ಷ ಇಟ್ ಓನ್ಲಿ ಪ್ರೊಡ್ಯೂಸಸ್ ದ ಆಕಾಂಕ್ಷ ಫಾರ್ ಧಾವನ ಇತ್ಯೇವಂ ದರ್ಶನಾರ್ಥಸ್ಯ ಕಾರಕ ಧಾವನ ಆಕಾಂಕ್ಷ ಉತ್ಥಾಪಕತ್ವಂ ಧಾವನಂ ತು ತದ್ವಿಷಯಃ ಏವ ಅತಃ ಅನ್ಯತರ ಸಂಬಂಧೇನ ಅರ್ಥಾಂತರ ಜಿಜ್ಞಾಸ ಆಕಾಂಕ್ಷ ಅಂತ್ಯಂ ತು ಅಂತ್ಯಂ ನಾಮ ಉಭಯ ಸಂಬಂಧೇನ ಪಚತಿ ತಂಡುಲಂ ದೇವದತ್ತಃ ಇತ್ಯಾದೌ ಕ್ರಿಯಾಕಾರಕಯೋಃ ದ್ವಯೋರಪಿ ಪರಸ್ಪರಂ ತದುತ್ಥಾಪಕತ್ವಾತ್ ತದ್ವಿಷಯತ್ವಾಚ್ಚ ಸೊ ಬಟ್ ಇನ್ ನಾರ್ಮಲ್ ಸೆಂಟೆನ್ಸಸ್ ಬೋತ್ ಕ್ರಿಯಾ ಅಂಡ್ ಕಾರಕ ಜನರೇಟ್ ಪರಸ್ಪರ ಆಕಾಂಕ್ಷ ಪಚತಿ ಇತ್ಯುಕ್ತೆ ಕರ್ತುಃ ಕರ್ಮಣಶ್ಚ ಆಕಾಂಕ್ಷ ಉದೇತಿ ತಂಡುಲಂ ಇತ್ಯುಕ್ತೆ ಕಿಂ ಇತಿ ಕ್ರಿಯಾ ವಿಷಯಿಣಿ ಆಕಾಂಕ್ಷ ಉತ್ಪದ್ಯತೆ ಅತಃ ಪರಸ್ಪರಂ ಉತ್ಥಾಪಕತ್ವಂ ವಿಷಯತ್ವಂ ಚ ಅಸ್ತಿ ಉಭಯ ಸಂಬಂಧೇನ ಅರ್ಥಾಂತರ ಜಿಜ್ಞಾಸ रूपा आकांक्षा सामान्यतः भवति, कदाचित् अन्यतर सम्बन्धेनापि आकांक्षा भवति। अत एव घटः कर्मत्वम् आनयनम् कृतिः इत्यतः घटम् आनय इतिवत् न अन्वयबोधः। सो इट् इस् बिकास् आफ् दिस् दट् वेन् यु से संथिङ्ग् लैक् घटः कर्मत्वम् इट् इस् बिकास् आफ् द प्रेसेन्स् आफ् आकाङ्क्षा, दट् इस् द आकाङ्क्षा हेल्प्स् इन् शाब्दबोध, इट् हेल्प्स् इन् ब्रिङ्गिङ्ग् द डिफरेण्ट् पदार्थास् टुगेदर् टु अण्डर्स्टाण्ड् अ कनेक्टेड् मीनिङ्ग्। अत एव घटः कर्मत्वम् आनयनम् कृतिः इत्यतः घटमानय इतिवत् न अन्वयबोधः। सो दिस् इस् द तार्किकस् स्प्लिट् अप् आफ् घटम् आनय, घटः इत्यस्य घटपदार्थः घटपदार्थे शक्तिः, द्वितीया विभक्तेः कर्मत्वे शक्तिः, आनय इत्यत्र धातोः आनयने शक्तिः, प्रत्ययस्य कृतौ शक्तिः, घटः कर्मत्वम् आनयनम् कृतिः इत्यस्ति। किन्तु अस्मात् वाक्यात् घटम् आनय इतिवत् न अन्वयबोधः, परस्पर अन्वयबोधः न भवति आकाङ्क्षा विरहात्। सो घटः इत्युक्ते कर्मत्वम् इत्यस्य आकाङ्क्षा न भवति, अथवा आनयनम् इत्यस्य आकाङ्क्षा अपि न भवति। कुतः? घटम् आनय इति विभक्त्यन्त आख्यातान्तयोरेव साकाङ्क्षत्वाच्च। सो यत्र विभक्तिः श्रूयते, यत्र वा आख्यातः नाम तिङ् प्रत्ययः श्रूयते, तत्रैव आकाङ्क्षा अनुभूयते। सो यदा घटम् इत्युच्यते तदा क्रियाविषयिणी आकाङ्क्षा उदेति, उत्थापकता अस्ति। एवमेव आनय इति तिङन्ते प्रयुक्ते किम् इति कारकविषयिण्याः आकाङ्क्षायाः उत्थापकता अस्ति, किन्तु केवलम् आनयनम् कृतिः इत्यादि उक्ते सा आकाङ्क्षा नास्ति। विभक्त्यन्त आख्यातान्तयोरेव साकाङ्क्षत्वाच्च इति आकाङ्क्षा निरूपणम्। सो बै दिस् हि कन्क्लूड्स् आकाङ्क्षा। सो आकाङ्क्षा इस् वन् आफ् द सहकारि कारणास् फार् शाब्दबोध। It helps in relating the words of a sentence, bringing them together to understand, to get the whole meaning out of a sentence. Okay. So, atra vyakhyane arthayor iti arthat, so we'll just read the akanksha. नब्रूम शब्दयोरिति किं तर्हि अर्थयोः। सो हि सेयिङ्ग् दट् आकाङ्क्षा इस् इन् द पदार्थ। फार् एक्साम्पल् वेन् दे से देवदत्तस्य गौः इत्युच्यते, देवदत्तः गाम् अपेक्षते मदीया इयम्। सो वेन् यु से देवदत्तस्य किम् इति, वाट् इस् इट् दट् बिलाङ्ग्स् टु देवदत्त, मदीया इयम् इति, गाम् अपेक्षते कः, देवदत्त पदार्थः, गौश्च देवदत्तम् अपेक्षते, अन्यसे गौः कस्य, सो हूज़, वाट् इस् दिस् इति, अपेक्षते अहम् अस्य इति, स्वं स्वम् अर्थं प्रति शब्दस्य विशेषणत्वेन गुणीभावात् अर्थयोरेव आकाङ्क्षा न शब्दयोः। अत्र परस्परव्यपेक्षा, देवदत्तस्य गौः इत्यत्र परस्परव्यपेक्षा उच्यते, तत्तु पदयोः न शब्दयोः न किन्तु अर्थयोरेव। ततः एकपदार्थे अपरपदार्थव्यतिरेकप्रयुक्तस्य अन्वयबोधजनकत्वस्य ज्ञानम् इत्युक्तम्। घटपदार्थे स्वेन्देशे घटम् अपरपदार्थव्यतिरेकप्रयुक्तस्य, बिकास् आफ् द अब्सेन्स् आफ् अदर् पदार्थ, अपरपदार्थज्ञानाभावप्रयोज्यस्य। सो हियर् हि क्लियर्ली सेस् अपरस्य पदार्थस्य ज्ञानस्य अभावः, सो अन्लेस् यु नो द अदर् पदार्थ। तथा च घटपदार्थे आनय पदार्थ अभाव प्रयोज्य बोध अजनकत्वस्य, सो अन्लेस् यु नो द आनय पदार्थ यु डु नाट् अण्डर्स्टाण्ड् वाट् यु मीन् बै घट। घटम् इत्युक्ते किम् इति बोधः न जायते। आनय पदार्थ अभाव प्रयोज्य बोध अजनकत्वस्य ज्ञानम् इत्यर्थः। अत एव पदस्य पदान्तरप्रयुक्त अन्वय अननुभावकत्वम् आकाङ्क्ष इति तार्किकाः प्राहुः। यथा घटम् इति सुबन्तम्, आनय इति तिङन्तम् अपेक्ष्यैव घटकर्मक आनयनार्थबोधम् जनयति। सो सुबन्त लैक् घटम् विल् ಎಕ್ಸ್ಪೀರಿಯನ್ಸ್ ಆಕಾಂಕ್ಷ ಫಾರ್ ಅ ಕ್ರಿಯಾ ದಟ್ ಇಸ್ ತಿಂಗಂತ ಲೈಕ್ ಆನಯ. ಸೊ ತದೈವ ಘಟಕರ್ಮಕ ಆನಯನಾರ್ಥ ಬೋಧ ಭವತಿ. ತಥೈವ ಆನಯ ಇತಿ ತಿಂಗಂತಂ ಪದಂ ಘಟಮಿತಿ ಸುಮಂತಂ ಪದಂ ಅಪೇಕ್ಷ್ಯ ಏತಾದೃಶಂ ಬೋಧಂ ಜನಯತಿ. ಸೊ ಇಂಡಿಪೆಂಡೆಂಟ್ಲಿ ದೇ ಕೆನಾಟ್ ಗಿವ್ ಯು ಘಟಂ ಕ್ಯಾನ್ ಗಿವ್ ಯು ಅ ಮೀನಿಂಗ್ ಆಫ್ ದ ಘಟ ಅಂಡ್ ಆನಯ ಕ್ಯಾನ್ ಹ್ಯಾವ್ ಇಟ್ಸ್ ಓನ್ ಮೀನಿಂಗ್ ಕಿಂತು ಸಮಗ್ರಸ್ಯ ಬೋಧ ನ ಭವತಿ. ಯು ವಿಲ್ ನಾಟ್ ಗೆಟ್ ದಟ್ ರಿಲೇಟೆಡ್ ಮೀನಿಂಗ್ ವಿಥೌಟ್ ಆಕಾಂಕ್ಷ. ತಯೋಶ್ಚ ಪರಸ್ಪರಂ ಅನ್ಯತರದ್ವಿನಾ ಅರ್ಥಬೋಧ ಉತ್ಪಾದಕತ್ವಾತ್ ಇತಿ ಭಾವಃ. ಓಕೆ, ಸೊ ದಿಸ್ ಇಸ್ ಅಬೌಟ್ ಆಕಾಂಕ್ಷ. ಎನಿ ಕ್ವೆಶ್ಚನ್ಸ್? Yes, Manu Prakash.
The last one is a little bit confusing because according to the Nayayikas, the sentence, the vakyam itself is ghatam.
That is what.
Why don't you ask Anshu to understand ghatam anaya? Because the vakyam is complete.
Sorry, ghatam is complete?
Because ghatam itself is the vakyam for them.
Yes, yes, it is. It has two padarthas, ghata padartha and ampadartha. That is why the definition of tarkikas is... the pada itself varies for them. As long as shaktam padam ityukte, ghatam iti vakyam. So, tatra ghata padarthasya ampade akanksha iti te vadanti, probably. I mean, I don't know exactly how they define akanksha, actually. But, tatra api artha samaptihi na bhavati. Kevalam ghatam ityukte, there is still the akanksha, right? I mean, the akanksha is not completely over. The karma definitely raises the akanksha for kriya. Without the kriya, the akanksha of the karma cannot be complete, cannot be fulfilled. It might be a vakya, but will it satisfy the akanksha?
One more question is, the akanksha is only to understand the akhanda sabda bodha, akhanda vakya bodha.
Exactly, vakya samaya grahika akanksha.
It is not for individual words.
No, it is not for individual words. That is the first thing he says. Vakya samaya grahika, to understand the shakti of the complete vakya, not for the pada. Yes. You can understand pada. I mean, even by ghatam, you do understand something. It is not that you will not understand it at all without the other words or the even without akanksha, with or without. Kashtid bodhaha jayate padarapi. Kintu vakyasya shaktihi, vakyasya kaha arthaha iti na jnayate. Ateva vakya samaya grahika akanksha. That is how he started. So it is only to understand the whole meaning of a vakya. So there, if you don't understand the anvaya or the interrelation, you will not understand the vakya. So that is why it is a sahakari karana. It is not the mukhya karana. Mukhya karanam tu padajnanam. So ghata padam nyayate, tatra vrittihi nyayate chet, bodhaha jayate. Kintu it is a something which helps as the sahakari karana. Okay. So the next one is yogyata. Yogyata cha paraspara anvaya prayojaka dharmavatvam. So it is not enough for akanksha to be satisfied. Excuse me, just one moment, please. ಯೋಗ್ಯತಾ ಚ ಪರಸ್ಪರ ಅನ್ವಯ ಪ್ರಯೋಜಕ ಧರ್ಮವತ್ವಂ. ಸೊ ಪರಸ್ಪರಂ ಅನ್ವಯ ಯತ್ರ ಭವತಿ ಪದಾರ್ಥಯೋ ತತ್ ಪ್ರಯೋಜಕ ಧರ್ಮ ಅಪಿ ಭವೇತ್ ತೇನ ಪಯಸಾ ಸಿಂಚತಿ ಇತಿ ವಾಕ್ಯಂ ಯೋಗ್ಯಂ. ಉದಾಹರಣಂ उदाहरणेन स्पष्टं भवति. पयसा सिञ्चति, पयः नाम अत्र जलम्, पयशब्दस्य जलम् इत्यपि अर्थः अस्ति, क्षीरम् इत्यपि अर्थः अस्ति. उभयं साधु, उभय अर्थद्वये स्वीकृते अपि वाक्यं तु योग्यमेव. पयसा सिञ्चति इति वाक्यं योग्यं, नाम योग्यता अस्ति. कीदृशी योग्यता अस्ति च सेक अन्वयप्रयोजक द्रवद्रव्यत्वं योग्यता जले. सो सिञ्चति इत्युक्ते आकाङ्क्षा भवति, केन सिञ्चति इति. एवं पयसा इत्युक्ते किं करोति इति आकाङ्क्षा भवति. अतः परस्पर आकाङ्क्षा अस्ति, किन्तु न तावता परस्पर अन्वयः भवति. तत्र योग्यता अपेक्षते, अर्थात् सिञ्चति नाम सेकक्रिया. सेकक्रियायां प्रयोजकः धर्मः कः इति चेत् द्रवद्रव्यत्वम्. सो इट् इस् अ लिक्विड्. सो वेन् वी से स्प्रिङ्क्लिङ्ग्, द आट्रिब्यूट् आफ् द इन्स्ट्रुमेण्ट् विच् विल् एनेबल् स्प्रिङ्क्लिङ्ग् इस् द्रवद्रव्यत्व, बीङ्ग् अ लिक्विड् द्रव्य. सेक अन्वयप्रयोजक द्रवद्रव्यत्वम्, एतदेव योग्यता इत्युच्यते. परस्पर अन्वयप्रयोजक धर्मवत्त्वम्, सेकक्रियया अन्वयं प्रयोजयति द्रवद्रव्यत्वरूपः धर्मः, तादृशधर्मवत् जलम्, अतः योग्यम् अस्ति च सेकान्वयप्रयोजक द्रवद्रव्यत्वं योग्यता जले. करणत्वेन जल अन्वयप्रयोजक आर्द्रीकरणत्वं योग्यता सेकक्रियायाम्. सो क्रियायामपि योग्यता अस्ति, किं नाम करणत्वेन जल अन्वय, यदा जलं करणं भवति तत् प्रयोजकं किम्? आर्द्रीकरणत्वम्, आर्द्रीकरणक्रिया एव करणत्वेन जलं प्राप्तुमर्हति. अतः योग्यता सेकक्रियायामपि अस्ति, परस्परयोग्यता अस्ति इत्यतः इदं वाक्यं योग्यम्. अत एव वह्निना सिञ्चति इति वाक्यम् अयोग्यम्. बट् स्प्रिङ्कल्स् वित् फयर्, वह्निना सिञ्चति इति वाक्ये योग्यता नास्ति, आकाङ्क्षा अस्ति. सिञ्चति इत्युक्ते आकाङ्क्षा वह्निना इत्यनेन पूर्यते. वह्निना किं करोति? सिञ्चति इति आकाङ्क्षापूर्तिः भवति, किन्तु योग्यता नास्ति. किमर्थम्? वह्नेः सेक अन्वयप्रयोजक द्रवद्रव्यत्व अभावात्. So the for relating to seka kriya, something must have the attribute of this drava dravyatva, being a liquid dravya, which is not present in vanhi. So it is not possible to sprinkle with fire. Atayeva vanhina sinchati iti vakyam ayogyam, vanhehe sekanvaya prayojaka drava dravyatva abhavat. Etadrishasthaleshu na anvaya bodhaha, किन्तु प्रत्येकं पदार्थबोधमात्रम् इति नैयायिकाः. यत्र योग्यता नास्ति तत्र वाक्यस्य अन्वयबोध एव न भवति. एतादृशस्थलेषु न अन्वयबोधः, किन्तु प्रत्येकं पदार्थबोधमात्रम्. सो यु ओन्ली अण्डर्स्टाण्ड् द इण्डिविजुवल् पदार्थ. वह्निना वह्निपदार्थः बुध्यते, चेकरूपक्रिया बुध्यते, किन्तु परस्पर अन्वयः एव न भवति इति नैयायिकाः वदन्ति. तन्न बौद्धार्थस्यैव सर्वत्र बोधविषयत्वेन बाधस्य अभावात्. सो पूर्वमेव यथा उक्तं, साक्षात् पदार्थस्य एतत् न शाब्दबोधे बौद्धपदार्थस्य एव शक्यत्वम्. बौद्धः एव बौद्धं पदम् एव शक्तं, बौद्धः एव अर्थः शक्यः इति उक्तम्. बौद्ध अर्थस्यैव सर्वत्र बोधविषयत्वेन, बुद्धौ तु अर्थबोधः भवति. वह्निः इत्युक्ते सिञ्चति इत्युक्ते उभयोः अर्थबोधे जाते, अन्वयः अपि भवति, तत्र बाधः नास्ति. वस्तुतः वह्नेः सेकक्रिया योग्यता अभावे अपि बौद्धस्य वह्निपदार्थस्य सेकक्रियया अन्वये कोऽपि बाधः नास्ति. बिकास् इन् द बौद्ध पदार्थ युड् नीदर् हाव् द द्रवद्रव्यत्व नार् द आद्रीकरणत्व एट्सेट्रा. अतः अन्वयः भवति, बौद्धपदार्थस्य बौद्धपदार्थयोः अन्वयः भवति. हरिरप्याः अत्यन्त असत्यपि ह्यर्थे ज्ञानं शब्दः करोति च, अत्यन्त असत्यपि ह्यर्थे, अर्थः अत्यन्तम् इत्युक्ते सर्वथा नास्त्येव, तथापि शब्दः ज्ञानं करोति, बोधमुत्पादयति. अत एव वन्ध्यासुतानि शब्दानां प्रातिपदिकत्वं पूर्वमपि प्रतिपादितं बौद्धः पदार्थः शशशृङ्गं वन्ध्यासुतः इत्यादीनां अर्थवत्त्वम् अस्ति. कीदृशम् अर्थवत्त्वम्? बौद्धम् अर्थवत्त्वम् अस्ति, अत एव प्रातिपदिकत्वम् इति प्रतिपादितम्. अतः वह्निना सिञ्चति इत्यत्र अपि बोधः भवति. वह्निना सिञ्चति इत्यतः बोधस्य अभावे, बोधाभावे तद्वाक्यप्रयोक्तारं प्रति अद्रवेण वह्निना कथं सेकं ब्रवीषि इति उपहास अनापत्तेश्च. यदि कोऽपि वदति वह्निना सिञ्च इति वदति, तर्हि उत्तरं किं स्यात्? उपहासः एव भवति. कथं वह्निना सेकः कर्तुं शक्यते इति उपहासः भवति. यदि बोधः एव नास्ति, वह्निना सिञ्चति इत्यतः बोधाभावे तद्वाक्यप्रयोक्तारं प्रति अद्रवेण वह्निना कथं सेकं ब्रवीषि इति उपहास अनापत्तेः. यदि न अवगम्यते, शाब्दबोधः एव न भवति, तर्हि उपहासः कथं वा स्यात्? उपहासस्तु दृश्यते. इफ् somebody tells you sprinkle with fire, obviously the retort would be, how is it possible? So if you don't understand it, यदि शाब्दबोध एव न भवति, तर्हि उपहासस्य प्रसङ्गः नास्ति. अतः शाब्दबोधः भवति, योग्यताविरहे अपि शाब्दबोधः भवति इति वैयाकरणसिद्धान्तः. वाक्य अर्थबोधे जाते बुद्धार्थविषये प्रवृत्तिस्तु न भवति. अर्थबोधः भवति, शाब्दबोधः भवति, किन्तु जाते अर्थे प्रवृत्तिः न भवति. सो यदि कश्चिद् वदति जलेन सिञ्च, तर्हि जलसेकक्रियायां प्रवृत्तिः भवति, यतोहि योग्यता अस्ति, सम्भवः अस्ति इति ज्ञानात्. यदि कोऽपि वह्निना सिञ्च इति वदति, तर्हि शाब्दबोधः भवति, किन्तु तस्मिन् कार्ये प्रवृत्तिः न भवति. वाक्यार्थबोधे जाते बुद्धार्थविषये प्रवृत्तिस्तु न भवति, बुद्धार्थे अप्रामाण्यग्रहात्. अत्र प्रमा नास्ति, निश्चितज्ञानं नास्ति. सो इट् इस् नाट् रैट् इति ज्ञानात्, इट् इस् नाट् पासिबल् इत्येवम् अप्रामाण्यग्रहात् इति अन्यत्र विस्तरः, अन्यत्र नाम लघुमञ्जूषायां विस्तरेण प्रतिपादयति. एवं योग्यता, यद्यपि शाब्दबोधसहकारिकारणम् इत्युच्यते, योग्यतां विना अपि शाब्दबोधः भवति, बुद्धे अर्थे प्रवृत्तिः न भवति. अतः प्रमाणभूतस्य शाब्दबोधस्य विषये योग्यता कारणम्. सो यत्र शाब्दबोधः प्रमाणं भवेत्, शब्दः प्रमाणम् इति यदि भवेत्, तर्हि योग्यता अपेक्ष्यते. अन्यथा अप्रामाण्यं, ज्ञातस्य अर्थस्यापि अप्रामाण्यं भवति इति सिद्धान्तः. ओके, सो दिस् इस् योग्यता. एनि क्वश्चन्स्? सो शाब्दबोधसहकारिकारणानि चत्वारि उच्यन्ते, आकाङ्क्षा, योग्यता, आसक्तिः, तात्पर्यं चेति. तत्र आकाङ्क्षा नामका इति आदौ प्रतिपाद्यते. वाक्यसमयग्राहिका आकाङ्क्षा, वाक्यस्य अर्थबोधे सहकारिणी भवति आकाङ्क्षा. एकपदार्थज्ञाने तदर्थ अन्वययोग्य अर्थस्य यज्ज्ञानं तद्विषय इच्छा. सो एकस्मिन् पदार्थे ज्ञाते तेन अन्वयी अर्थः कः इत्येवं रूपा इच्छा एव आकाङ्क्षा इत्युच्यते. एषा इच्छा पुरुषनिष्ठा, किन्तु अर्थे आकाङ्क्षायाः आरोपः विषयता सम्बन्धेन. एतादृश ज्ञानस्य जिज्ञासायाः विषयः ज्ञानविषयिणी इच्छा आकाङ्क्षा, नाम जिज्ञासा एव आकाङ्क्षा. जिज्ञासायाः विषयः भवति अर्थः, अतः अर्थे आकाङ्क्षायाः आरोपः क्रियते. साकाङ्क्षः अर्थः, एषः पदार्थः अपरं पदार्थम् आकाङ्क्षति इत्येवम्. पदं साकाङ्क्षम् इति तु साकाङ्क्ष अर्थबोधकम् इत्यर्थे व्यवहारः व्यवह्रियते, किन्तु वस्तुतः पदस्य साकाङ्क्षत्वं न भवति. अर्थबोधे जाते एव आकाङ्क्षायाः उदयः. किञ्च एकपदार्थे अपरपदार्थव्यतिरेकप्रयुक्त अन्वयबोध अजनकत्वम् अपि आकाङ्क्षा इत्युच्यते. अतः यत्र एकस्मिन् पदार्थे ज्ञाते अपरस्य पदार्थस्य अभावकारणेन ಅನ್ವಯಬೋಧ ನ ಭವತಿ ತಾದೃಶ ಅನ್ವಯಬೋಧ ಅಜನಕತ್ವಂ ಅನ್ವಯಬೋಧ ಅನುತ್ಪಾದಕತ್ವಂ ಅಪಿ ಆಕಾಂಕ್ಷಾ ಇತಿ ವ್ಯವಹ್ರಿಯತೆ. ಇಂಚ ಉತ್ಥಾಪಕತಾ ವಿಷಯತಾ ಅನ್ಯತರ ಸಂಬಂಧೇನ ಉಭಯ ಸಂಬಂಧೇನ ವಾ ಅರ್ಥಾಂತರ ಜಿಜ್ಞಾಸ ಆಕಾಂಕ್ಷಾ. ಸೋ ಯತ್ರ ಅರ್ಥಾಂತರಸ್ಯ ಜಿಜ್ಞಾಸಾ ಭವತಿ ತತ್ರ ಕ್ವಚಿತ್ ಉತ್ಥಾಪಕತಾ ವಿಷಯತಾ ಇತಿ ಉಭಯ ಸಂಬಂಧಃ ಭವತಿ ಕ್ವಚಿಚ್ಚ ಅನಯೋರ್ ಏಕ ಏವ ಯಥಾ ಘಟಂ ಆನಯ ಇತ್ಯುಕ್ತೆ ಉಭಯ ಸಂಬಂಧಃ ಅಸ್ತಿ. ಘಟ ಪದಾರ್ಥಃ ಆನಯನ ಪದಾರ್ಥ ಜ್ಞಾನಂ ಜ್ಞಾನ ವಿಷಯ ಜಿಜ್ಞಾಸಾಂ ಉತ್ಪಾದಯತಿ ಆನಯನ ಪದಾರ್ಥಶ್ಚ ಘಟ ಪದಾರ್ಥ ವಿಷಯಿಣೀಂ ಆಕಾಂಕ್ಷಾಂ ಉತ್ಪಾದಯತಿ. ಕಿಂಚ ಘಟ ಪದಾರ್ಥಃ ಆನಯನ ಪದಾರ್ಥೇನ ಉತ್ಥಾಪಿತಾಯಾಹ ಆಕಾಂಕ್ಷಾಯಾಹ ವಿಷಯಃ ಏವಂ ಆನಯನ ಪದಾರ್ಥಃ ಅಸ್ಯ ಆಕಾಂಕ್ಷಾಯಾಹ ವಿಷಯಃ ಇತಿ ಪರಸ್ಪರಂ ಉಭಯ ಸಂಬಂಧಃ ಭವತಿ. ಪಶ್ಯಮೃಗೋ ಧಾವತಿ ಇತ್ಯಾದಿಷು ತು ಧಾವತಿ ಇತಿ ಪದಾರ್ಥಃ ದರ್ಶನಕ್ರಿಯಾಯ ವಿಷಯಿಣೀಂ ಆಕಾಂಕ್ಷಾಂ ನ ಉತ್ಥಾಪಯತಿ. ಕೇವಲಂ ದರ್ಶನಕ್ರಿಯೆಯ ಉತ್ಥಾಪಿತಾಯಾಹ ಆಕಾಂಕ್ಷಾಯಾಹ ವಿಷಯಃ ಭವತಿ ಘಟಪದಾರ್ಥಃ. ಏವಂ ಪಶ್ಯತಿ ಇತಿ ದರ್ಶನಾರ್ಥಃ ಘಟವಿಷಯೇ ಕ್ಷಮ್ಯತಾಂ ಧಾವನ ವಿಷಯೇ ಆಕಾಂಕ್ಷಾಂ ಉತ್ಥಾಪಯತಿ. ಕಿಂತು ಧಾವನ ಪದಾರ್ಥೇನ ಉತ್ಥಾಪಿತಾಯಾಹ ಆಕಾಂಕ್ಷಾಯಾಹ ವಿಷಯಃ ನ ಭವತಿ ಇತ್ಯೇವಂ ಏಕ ಏವ ಸಂಬಂಧಃ ಭವತಿ. ಉತ್ಥಾಪಕತಾ ಅಥವಾ ವಿಷಯತಾ ಇತಿ ಅನ್ಯತರ ಸಂಬಂಧಃ ಏವ ಭವತಿ, ಉಭಯ ಸಂಬಂಧಃ ತತ್ರ ನಾಸ್ತಿ. ಏವಂ ಉತ್ಥಾಪಕತಾ ವಿಷಯತಾ ಅನ್ಯತರ ಸಂಬಂಧೇನ ಉಭಯ ಸಂಬಂಧೇನ ವಾ ಅರ್ಥಾಂತರ ಜಿಜ್ಞಾಸಾ ಆಕಾಂಕ್ಷಾ. ಸೊ ಘಟಃ ಕರ್ಮತ್ವಂ ಆನಯನಂ ಕೃತಿಃ ಇತ್ಯತ್ರ ಆಕಾಂಕ್ಷಾ ವಿರಹಾತ್ ಅನ್ವಯಬೋಧೋ ನ ಭವತಿ. ವಿಭಕ್ತ್ಯಂತ ಆಖ್ಯಾಂತಂತಯೋರೇವ ಸಾಕಾಂಕ್ಷತ್ವಂ ಇತಿ ನಾಗೇಶಸ್ಯ ಮತಂ. ಇತ್ಯೇವಂ ಆಕಾಂಕ್ಷಾ ನಿರೂಪಿತ ದ್ವಿತೀಯಂ ಶಾಬ್ದಬೋಧ ಸಹಕಾರಿ ಕಾರಣಮಸ್ತಿ ಯೋಗ್ಯತಾ. ಪರಸ್ಪರ ಅನ್ವಯ ಪ್ರಯೋಜಕ ಧರ್ಮವತ್ವಂ ಪರಸ್ಪರ ಅನ್ವಯೇ ಆಕಾಂಕ್ಷಾ ಮಾತ್ರೇಣ ನ ಅಲಂ ಅನ್ವಯ ಪ್ರಯೋಜಕ ಕಶ್ಚಿತ್ ಧರ್ಮ ಭವತಿ. ಸೊ ಟು ರಿಲೇಟ್ ಒನ್ ಪದಾರ್ಥ ಟು ಅನದರ್ ದೇರ್ ಶುಡ್ ಬಿ ಯೋಗ್ಯತಾ. ಸೊ ದಟ್ ಇಸ್ ಧರ್ಮ ಅ ಪರ್ಟಿಕ್ಯುಲರ್ ಆಟ್ರಿಬ್ಯೂಟ್ ವಿಚ್ ವಿಲ್ ಅಲೌ ದ ಟೂ ಪದಾರ್ಥ ಟು ರಿಲೇಟ್ ಟು ಈಚ್ ಅದರ್. ಯಥಾ ಸೇಕಕ್ರಿಯಾಯಾಂ ದ್ರವದ್ರವ್ಯತ್ವ ರೂಪಃ ಧರ್ಮ ಅಪೇಕ್ಷ್ಯತೆ. ಅತಃ ಜಲೇನ ಸಿಂಚತಿ ಕ್ಷೀರೇಣ ಸಿಂಚತಿ ಇತ್ಯಾದೀನಿ ವಾಕ್ಯಾನಿ ಯೋಗ್ಯಾನಿ ಕಿಂತು ವನ್ಹಿನಾ ಸಿಂಚತಿ ಇತಿ ವಾಕ್ಯೆ ಯೋಗ್ಯತಾ ನಾಸ್ತಿ. ಯೋಗ್ಯತಾ ವಿರಹೇ ಅಪಿ ಶಾಬ್ದಬೋಧಃ ಭವತಿ ಬುದ್ಧೇ ಅರ್ಥೇ ಪ್ರವೃತ್ತಿಸ್ತು ನ ಭವತಿ ಅಪ್ರಾಮಾಣ್ಯ ಗ್ರಹಾದ್ ಇತಿ ಸಿದ್ಧಾಂತಃ. ವೈಯಾಕರಣಾನ ತಾರ್ಕಿಕಾಣಾಂ ಮತೇ ಬೋಧಃ ಏವ ನ ಭವತಿ ಇತಿ ತೇಷಾಂ ಮತಂ. ಅಸ್ಮನ್ ಮತೇ ತು ಬೋಧಃ ಭವತಿ ತತ್ರ ಪ್ರವೃತ್ತಿರ್ನ ಭವತಿ ಇತಿ. ಎನಿ ಕ್ವೆಶ್ಚನ್ಸ್? ಸೊ ಅಗ್ರಿಮವರ್ಗೆ ಆಸಕ್ತಿ ತಾತ್ಪರ್ಯಂ ಇತ್ಯೇತದ್ವಯಂ ಪಠಾಮಿ. Yes.
Swamiji, so this akanksha, as I'm able to understand it, because there's a lot there, but it seems that the basic argument that he's giving is that to understand a sentence, it's the desire to see the relationship between the words.
Yes.
And then, of course, that relationship has to be fit. That's the yogatva.
Exactly.
Okay. Great. Thank you.
So unless there is a relation, I mean, you won't get a complete meaning out of the vakya. So that is why
right.
We have the akanksha. Even though the independent words, that is why we say that a vakya with unrelated words like gaurashvah purusho hasti, I mean, some random words put together is not a vakya, because, I mean, there
right.
is no akanksha at all. There is no desire. It's only when there is a relation to give a coherent meaning out of the vakya. So that is when
but
it becomes.
You may have a desire, you hear the word, but there's no response to that desire. You don't have it fulfilled, so there's no sentence.
Then there is no shabdabodha. There is no understanding.
Yeah.
Will not happen. Yeah.
Right. But it's that desire that's caused inside of us that
exactly.
is causing us to have an understanding.
Yes. Purushanishtha akanksha. So it is within us, the desire to know. Otherwise, I mean, the words or their meanings can exist independently.
Yeah.
It is we who try to link them and understand for the purpose of Shabda Bodha, for understanding the words.
Yeah, this is a great study. I love this class.
Thank you.
Good night.
Okay. Yeah. So, Shivannatva Hinageshe Nanindya Paramalakuhu Vyakarana Siddhanta Manjusha Isha Virachyate.